एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। रसुवा जनपदे भोटिकुशी नद्यां पूर्वे दिहु दुरापन्नस्य विनाशकारिणः जलविप्लवस्य कारणेन अधुनावधि 57,100 जनानां शवः प्राप्ताः वर्तन्ते। नेपाल प्रहरिणः अनुसारेण अधुनावधि 34 महिलानां 63 पुरूषाणां 6 बालिकानां 7 बालकानां च शवानां सत्यापनं सम्भूतं नास्ति। प्रहरिणः अनुसारेण रसुवा जनपदे 3 पुरूषाणां शवः प्राप्ताः वर्तन्ते। नुवाकोट जनपदे 6 महिलानां 7 पुरूषाणां च शवाः प्राप्ताः सन्ति। धादिङ जनपदे 10 महिलानां 10 पुरूषाणां च एका बालिकायाः शवाः प्राप्ताः सन्ति। तेषु 6 जनानां शवाः सत्यापिताः न सन्ति। गोर्खा जनपदे 2 महिल्यो पुरूषाणां 8 एकस्य बालकस्य च शवाः 8 असत्यापिताः शवाश्च प्राप्ताः सन्ति। प्रहरिणः अनुसारेण चितवन जनपदे महिलानां 3 पुरूषाणां 18 एकस्य बालिकायाः 4 बालकानां 28 असत्यापिताश्च शवाः प्राप्ताः सन्ति। तनहुँ जनपदे महिलानां 1 पुरूषाणां 5 एकस्य बालिकायाः 1 बालकस्य च शवाः प्राप्ताः सन्ति। नवलपरासी जनपदे महिलयो 2 पुरूषाणां 12 बालकस्य 1 अज्ञातः 4 शवाः प्राप्ताः वर्तन्ते। प्रधानमन्त्री बालेन्द्र शाह आहतानां जीवनरक्षा विलुप्तानां अन्वेषणं प्रभावितानां संरक्षणं च सम्प्रति सर्वकारस्य प्राथमिकतायां स्थापिताः विषयाः सन्ति इति उक्तवान् वर्तते। प्रधानमन्त्री शाह सामाजिक सञ्जालस्य माध्यमेन जलप्लवेन प्रभावित क्षेत्राणाम् अन्य क्षेत्राणां च नागरिकान् सम्बोधयन् सर्वकारेण समग्रमपि ध्यानम् उद्धाराय अन्वेषणाय सहयोगाय च केन्द्रीकृतमस्ति इति उक्तवान्। प्रधानमन्त्रिणा शाहेन मृतान् जनान् प्रति श्रद्धाञ्जलिं समर्प्य आहतानां जनानां स्वास्थ्यलाभस्य कामना विहितास्ति। प्रधानमन्त्रिणा बालेन्द्र शाहेन भोटिकोशी नद्यां दुरापन्नेन जलप्लवेन प्रभावितानां जनानाम् उद्धाराय सहयोगाय च प्रभावकारी समन्वयात्मकञ्च कार्यं सम्पादयितुं सम्बद्धा निकायाः निर्दिष्टाः वर्तन्ते। प्रधानमन्त्री मन्त्री परिषदः कार्यालय सम्पन्ने विपद संकट न्यूनीकरण व्यवस्थापन राष्ट्रिय परिषदः उपवेशे प्रधानमन्त्री शाह जलप्लवेन प्रभावितस्य क्षेत्रस्य क्षतेः विवरणस्य संकलनाय जनानाम् उद्धाराय सहयोगाय च विधीयमानानां कार्याणां विषयं विचार्य उद्धारस्य अन्वेषणस्य सहयोगस्य च कृते प्रभावकारि कार्यं चालयितुं निरदिशत्। ह्य एव उपवेशस्य पश्चात् संचारकर्मिभिः भाषमाणः नेपाली कांग्रेस दलस्य संसदीय दलस्य नेता भीष्मराज आङदेम्बे भोटेकोशी नद्याः जलप्लवेन संकटापन्नानां जनानां उद्धारे तीव्रतायै निर्णीतमस्ति इति अज्ञापयत्। ह्य एव प्रधानमन्त्रिणा शाहेन भोटेकोशी नद्यां दुरापन्नेन जलप्लवेन उत्पन्नायां परिस्थितेः विषये जलप्लवेन प्रभावितानां क्षेत्राणां सांसदैस्सह विमृष्टमस्ति। सर्वकारेण रसुवा जनपदस्य सीमाक्षेत्रे रसुवागढ़ी स्थाने भोटेकोशी नद्यां दुरापन्नेन भीषणेन जलप्लवेन प्रभावितानां नागरिकाणां तत्कालमेव उद्धाराय उपचाराय सहयोगाय च प्राथमिकतापूर्वकं कार्यम् अग्रेसारयितुं निर्णीतमस्ति। ह्य उपवेशेन मन्त्री परिषदः आकस्मिकोपवेशेन जलप्लवे निपत्य आहतानां जनानां तत्कालमेव निःशुल्करूपेण उपचारस्य व्यवस्थां कर्तुम् अवरुद्धानां मार्गाणां पुनः संचालनाय प्रयत्नं विधातुं च सम्बद्धा निकायाः निर्दिष्टाः वर्तन्ते इति सर्वकारस्य प्रवक्ता शिक्षाखेलकूर्द मन्त्री सस्मित पोखरेलः अज्ञापयत्। एवमेव अवरुद्धायाः दूरसञ्चारसेवायाः विद्युत्सेवायाश्च यथाशीघ्रं सञ्चालनस्य व्यवस्थां विधातुं क्षतिग्रस्तानां सार्वजनिक संरचनानां भौतिक पूर्वाधाराणां च पुनर्निर्माणाय आवश्यकम् आर्थिक स्रोतसां परिचालनं समन्वयं च विधातुं सम्बद्धाः मन्त्रालयाः निर्दिष्टाः सन्ति इति मन्त्री पोखरेलः अज्ञापयत्। उपवेशेन विपत् प्रभावितानां जनपदानां स्थानीयस्तरान् मासत्रयं यावत् विपत् संकटग्रस्त क्षेत्रत्वेन उद्घोष्टुं निर्णीतमस्ति। विभिन्नानाम राजनीतिक दलानाम शीर्ष नेतृभि रसुवा जनपदस्य भोटेकोशी नद्याम दुरापन्नस्य जलप्लवस्य कारणेन उत्पन्नायाम विषम परिस्थितौ नागरिकाणाम जीवन रक्षायै उद्धाराय च प्राथमिकतापूर्वकम् कार्यम् विधातुम् सम्बद्धा निकायः दलानाम नेतारः कार्यकर्तारश्च अनुरुद्धा वर्तन्ते। राष्ट्रिय स्वतन्त्र दलस्य सभापतिना रवि लामिछाने विधेन, नेपाली कांग्रेस दलस्य सभापतिना गगन थापा विधेन, नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलीना, नेकपा दलस्य संयोजकेन पुष्पकमल दाहाल प्रचण्डेन च जलप्लवस्य कारणेन उत्पन्नायाम विषम परिस्थितौ नागरिकाणाम जीवन रक्षायाम उद्धारम च प्राथमिकतायाम संस्थाप्य दायित्ववाहितया ऐक्यबद्धतया च कार्यम कर्तुम् अनुरुद्धा वर्तन्ते। राष्ट्रपतिना रामचन्द्र पौडेलेन रसुवा जनपदस्य भोटेकोशी नद्याम दुरापन्नेन जलविप्लवेन तटीय क्षेत्रे दुरापन्नायाम विपत्तौ निपतितानाम नागरिकाणाम अन्वेषणोद्धार सहयोगानाम कार्य राज्यस्य सर्वाणि संयन्त्राणि परिचालयितुं प्रधानमन्त्री अनुरुद्धो वर्तते। राष्ट्रपतिना पौडेलेन पूर्वे द्युः सायं दूरभाषं कृत्वा प्रधानमन्त्रिणः सात विपदो विषये सूचनां गृहीत्वा सर्वाणि संयन्त्राणि परिचालयितुम् अनुरुद्धं वर्तते। राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछाने विदस्य आह्वाने ह्यदुरापन्नस्य जलप्लवस्य कारणेन सम्भूतायाः क्षतेः अन्वेषणस्य उद्धारस्य सहयोगस्य पुनस्थापनायाश्च विषयेषु विमृष्टुम् अद्य सर्वदलीयोपवेशः आहूतो वर्तते। रासुपा दलस्य प्रवक्तुः जगदीश खरेलस्य अनुसारेण उपवेशः अद्य प्रातः नववादने सिंहप्रासादवर्तिनी रासुपा दलस्य संसदीय दलस्य कार्यालये आहूतो वर्तते। प्रतिनिधिसभायाः उपवेशः अनिश्चितकालस्य कृते स्थगितीकृतो वर्तते। प्रतिनिधिसभायाः स्थगनोपवेशे परराष्ट्रमन्त्री शिशिरखनालः रसुवा जनपदे भूटेकोशी नद्यां जलप्लवे निपत्य विपुलमात्रायां क्षतिः सम्भूतास्तीति ज्ञापितवान् आसीत्। नेपाल चीन देशयोः क्षिमक्षेत्रे प्रस्तरेण सह हिमस्खलनं सम्भूतं तेनैव कारणेन लेन्देखोला नद्यां शिलाखण्डैस्सहितः जलविप्लवः दुरापन्नोऽस्तीति प्रारम्भिक निष्कर्षोऽस्तीति राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन ज्ञापितम् वर्तते। कृत्रिमोपग्रहात् प्राप्तानां चित्राणां प्रारम्भिकस्य विश्लेषणस्य अनुसारेण रसुआगढ़ी सीमा प्रवेश बिन्दुतः आसन्न 20 किलोमीटर मितायाम् उत्तर पूर्वस्यां दिशि नेपाल चीन देशयोः सीमाक्षेत्रे एवं दुर्घटना सम्भूतेति प्राधिकरणस्य कार्यकारी प्रमुख डाक्टर धर्मराज उप्रेती असूचयत्।